श्रीमद्भागवत महापुराणम् एकादश स्कन्धः अथ चतुर्दशोऽध्यायः। उद्धव उवाच, वदन्ति कृष्णश्रेयांसि बहूनि ब्रह्मवादिनः, तेषां विकल्पप्राधान्यमुताहो एकमुख्यता। भवतो दारुतस्वामिन् भक्तियोगो नपेक्षितः, निरस्य सर्वतसङ्गं येन त्वय्या विषीन्मनः। श्रीभगवानुवाच, कालेन नष्टा प्रलये वाणीयं वेदसंहिता, मयादौ ब्रह्मणे प्रोक्ता, धर्मो यस्यां मदात्मकः। तेन प्रोक्ता च पुत्राय मनवे पूर्वजाय सा, ततो भृग्वादयो गृणन् सप्त ब्रह्म महर्षयः। तेभ्यः पितृभ्यस्तत्पुत्रा देवदानवगुह्यकाः, मनुष्याः सिद्धगन्धर्वाः सविद्याधरचारणाः। किं देवाः किं नरा नागा रक्षक किं पुरुषादयः, बह्व्यस्तेषां प्रकृतयो रजः सत्त्वतमो भुवः। याभिर्भूतानि भिद्यन्ते भूतानां मतयस्तथा, यथा प्रकृति सर्वेषां चित्रावाचस्रवन्ति, एवं प्रकृतिवैचित्र्याद्भिद्यन्ते मतयो नृणाम्। पारम्परेण केषाञ्चित् पाखण्डमतयोपरि, मन्मायामोहितधियः पुरुषाः पुरुषर्षभ, श्रेयो वदन्त्यनेकान्तं यथा कर्म यथा रुचि। धर्ममेके यशश्चान्ये कामं सत्यन्दमं शमम्, अन्ये वदन्ति स्वार्थं वा ऐश्वर्यं त्यागभोजनम्, केचिद्यज्ञतपोदानं व्रतानि नियमान् यमान्, आद्यन्तवन्त एवैषां लोकाक् कर्म विनिर्मिताः, दुःखोदर्कास्तमो निष्ठाः क्षुद्रानन्दाश्रु चार्पिताः। मय्यर्पितात्मनः सभ्यनिरपेक्षस्य सर्वतः, मयात्मना सुखं यत्तत्कुतस्याद्विषयात्मनाम्। अकीचनस्य दान्तस्य शान्तस्य समचेतसः, मया संतुष्ट मनसर्वासुखमयादिशः न पारमीष्ट्यन्न महीन्द्रधिष्ण्यन्न सार्वभौमन् नरसाधिपत्यम् न योगसिद्धिरपुनर्भवम् वा मय्यर्पितात्मीच्छति मद्विनान्यत् न तथा मे प्रियतम आत्मयो निर्नशङ्करः न च सङ्कर्षणो न श्रीर्नैवात्मा च यथा भवान् निरपेक्षं मुनिं शान्तं निर्वैरं समदर्शनम् अनुव्रजाम्यहं नित्यं पूयेत्यङ्घ्रिरेणुभिः निश्चैचना मयि अनुरक्तचेतसः शान्ता महान्तो किल जीववत्सलाः कामैरनालब्धधियो जुषन्ति यत् तन्नैरपेक्ष्यन्न विदुःसुखं मम बाध्यमानोऽपि मद्भक्तो विषयैरजितेन्द्रियः प्रायः प्रगल्भया भक्त्या विषयैर्नाभिभूयते यथाग्निःसुसमृद्धार्चिः करोत्येधांसि भस्मसात् तथा मद्विषया भक्ति रुद्धवैनांसि कृत्स्नशः न साधयति मां योगो न साङ्ख्यन् धर्म उद्धव न स्वाध्यायस्तपस्त्यागो यथा भक्तिर्ममोर्जिता भक्त्याहमेकया ग्राय श्रद्धयात्मा प्रियसताम् भक्तिः पुनाति मन्निष्ठा श्वपाका नपि संभवात् धर्मः सत्यदयोपेतो विद्या वा तपसान्विता मद्भक्त्यापेतमात्मानन्न सम्यक् प्रपुनातिः कथं विनारो महर्षन् द्रवता चेतसा विना विनानन्दाशुकलया शुद्धिर्भक्त्या विनाशयः वाग्गद्गदा द्रवते यस्य चित्तं रुदत्यभीक्ष्णं हसति क्वचिच्च विलज्ज उद्गायति नृत्यते च मद्भक्तियुक्तो भुवनं पुनाति यथाग्निना हेममलैजहाति मातं पुनः स्वं भजते च रूपम् आत्मा च कर्मानुशयं विधूय मद्भक्तियोगेन भजत्यथो माम् यथा यथात्मा परिमृज्यते सौ मत्पुण्यगाथा श्रवणाभिधानैः तथा तथा पश्य पश्यति वस्तु सूक्ष्मै चक्षुर्यथैवाय जनसंप्रयुक्तम् विषयान्ध्यायतश्चित्तम् विषयेषु विसज्जते मामनुस्मरतश्चित्तम् मय्येव प्रविलीयते तस्मादसदभिध्यानम् यथा स्वप्नमनोरथम् हित्वा मयि समाधत्स्व मनोमद्भावभावितम् स्त्रीणाम् स्त्रीसङ्गिनाम् सङ्गम् त्यक्त्वा दूरतात्मवान् क्षेमे विविक्त आसीनश्चिन्तयेन्मामतन्द्रितः न तथास्य भवेत् क्लेशो बन्धश्चान्यप्रसङ्गतः योषित्सङ्गाद्यथा पुंसो यथा तत्सङ्गिसङ्गतः उद्धव उवाच यथा त्वामरविन्दाक्ष यादृशं वायदात्मकम् ध्यायेन्मुमुक्षुरे तन्मे ध्यानं त्वं वक्तुमर्हसि श्रीभगवानुवाच समासन आसीन समकायो यथा सुखम् हस्तावुत्सङ्ग आधाय स्वनासाग्रकृते क्षणः प्राणस्य शोधयेन्मार्गम् पूरकुम्भकरे चकैः विपर्ययेणापि शनैरभ्यसीन्निर्जितेन्द्रियः हृद्यविच्छिन्नमोङ्कारम् घण्टानादम् विसोर्णवत् प्राणेनोदीर्य तत्राथ पुनः संवेशयेत् स्वरम् एवम् प्रणवसंयुक्तम् प्राणमेव समभ्यसेत् दशकृत्वस्त्रिश्रवणम् मासादर्वा जितानिलः हृत्पुण्डरीकमन्तस्थ मूर्ध्वनालमधोमुखम् ध्यात्वोर्ध्वमुखमुन्निद्र मष्टपत्रम् सकर्णिकम् कर्णिकायान्यसेत् सूर्य सोमाग्नीनुत्तरोत्तरम् वह्निमध्ये स्मरेद्रूपम् ममैतत् ध्यानमङ्गलम् समम् प्रशान्तम् सुमुखम् दीर्घचारुचतुर्भुजम् सुचारुसुन्दरग्रीवम् सुकपोलम् शुचिस्मितम् समानकर्णविन्यस्तस्फुरन्मकरकुण्डलम् हेमाम्बरङ्घनश्यामम् श्रीवत्स श्रीनिकेतनम् शङ्ख चक्र गदा पद्म वनमाला विभूषितम् नूपुरैर्विलसत्पादम् कौस्तुभ प्रभयायुतम् द्युमत्किरीटकटककटिसूत्राङ्गदायुतम् सर्वाङ्गसुन्दरम् हृद्यम् प्रसादसुमुखीक्षणम् सुकुमारमभिध्यायेत् सर्वाङ्गेषु मनो दधत् इन्द्रियाणीन्द्रियार्थेभ्यो मनसाकृष्य तन्मनः बुद्ध्या सारथिनाधीरः प्रणयेन्मयि सर्वतः तत्सर्वव्यापकैश्चित्त मां कृष्यैकत्र धारयेत् नान्यानि चिन्तये भूयस् सुस्मितं भावयेन्मुखम् तत्र लब्धपदैश्चित्त मार्कृष्य व्योम् निधारयेत् तच्च त्यक्त्वा मदारोः न केचिदपि चिन्तयेत् एवं समाहितमतिर्मामेवात्मानमात्मनि विचष्टे मयि सर्वात्मन् ज्योतिर्ज्योतिषि संयुतम् ध्यानेनेत्थं सुतीव्रेण युञ्जतो योगिनो मनः संयास्यत्याशु निर्वाणन् द्रव्यज्ञानक्रिया भ्रमः इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे चतुर्दशोऽध्यायः ॐ सर्वं श्रीकृष्णार्पणमस्तु।